धनवान् भवति यः एवं वेदा योपामायतनं वेदा आयतनवान् भवति
मनीषी।